इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। महावीर जयन्त्याः शुभपर्वणि प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्याः भारतमण्डपम् स्थाने 55+500 भगवान महावीर निर्वाण महोत्सवस्य उद्घाटनं करिष्यति। अत्रावसरे प्रधानमन्त्री एकस्याः प्रैष्य मुद्रायाः प्रख्यापनं करिष्यति, अपि च समागमम् अपि एकं सम्बोधयिष्यति। लोकसभा निर्वाचनस्य तृतीय चरणाय नामांकन पत्राणां निरीक्षणं ह्यः सम्पन्नम्। नामांकन प्रपूरण प्रक्रियापि समाप्ता जाता। एतस्मिन् तृतीय चरणे 10 राज्येष् 2 केन्द्रशासित प्रदेशयोश्च 84 संसदीय क्षेत्रेभ्यः मई मासस्य 7 दिनांके मतदानं भविष्यति। प्रत्याशिनः सोमवासरां यावत् स्वीय नामांकन प्रत्यावर्तनं कर्तुं शक्नुवन्ति। गुजरात राज्ये लोकसभा निर्वाचनस्य विधानसभा निर्वाचनस्य च उपनिर्वाचनस्य नामांकन पत्र निरीक्षणं जातम्। ध्येयं वर्तते यत् लोकसभा निर्वाचनस्य चतुर्थ चरणाय नामांकन पत्र पूरणस्य कार्यं गुरुवासरे भविता। एतस्मिन् चतुर्थे चरणे मई मासस्य 13 दिनांके 9 राज्यानां 1 केन्द्रशासित प्रदेशस्य 96 लोकसभाक्षेत्रेभ्यः मतदानानि भविष्यन्ति। अस्य मासस्य 25 दिने नामांकन प्रत्यावर्तनं कर्तुं शक्यते। अस्य वर्षस्य फरवरी मासे कर्मचारी भविष्य निधि संघटनेन आहत्य 48,000+15,00,000 नवीनाः सदस्याः योजिताः। संघटनद्वारा ह्यः प्रसारित दत्तांशानुसारि फरवरी मासे प्रायशः 78,000+7,00,000 नवीनाः सदस्याः अपि नामांकिताः। नवीन सदस्येष् 2,00,000+ महिलाः अपि सन्ति। योजित सदस्याः 18-25 आयुवर्गीयाः वर्तन्ते। सामान्य निर्वाचनानां प्रथमचरणस्य समाप्तेः अनन्तरं लोकसभा निर्वाचनस्य द्वितीय चरणार्थं प्रचाराभियानं जवीय गत्या प्रवर्तते। विभिन्न राजनैतिक दलानां वरिष्ठ नेतारः मतदातृन् आक्रष्टुम् अशेषे हि देशे जनसभाः सम्बोधने दत्तचित्ताः सन्ति। द्वितीय चरणे अस्य मासस्य 26 दिनांके 12 राज्यानां केन्द्रशासित प्रदेशानां च 88 संसदीय आसनेषु सममेव मणिपुर लोकसभा क्षेत्रस्य अवशिष्ट भागेषु मतदानानि भविष्यन्ति। अवसरेऽस्मिन् केरलस्य 20 आसनानि, कर्णाटकस्य 14 आसनानि, राजस्थानस्य 13 आसनानि, उत्तरप्रदेशस्य 8, महाराष्ट्रस्य 8, मध्यप्रदेशस्य 7 आसनानि, असमस्य 5 आसनानि, बिहारस्य 5 आसनानि, त्रिपुरा जम्मूकश्मीरयोः 1-1 आसनं समेत्य द्वितीयचरणे मतदानानि भविष्यन्ति। अपि च पश्चिमबंगालस्य 3 आसनानि, छत्तीसगढस्यापि 3 आसनानि समेत्य द्वितीयचरणे मतदानानि भविष्यन्ति। भारतर्तु विज्ञान विभागेन सोमवासरं यावत् ओडिशा गांगीय पश्चिमबंगालयोः उष्णलहरी प्रकल्पिता, तत्रैव उत्तरभारतस्य केभ्यश्चित् भागेभ्यः वृष्टि हिमपातश्च अनुमानितः। आगामिनं दिनद्वयं यावत् झारखण्डस्य केषुचित् भागेषु अत्यधिक ग्रीष्मता अनुमानिता। आईपीएल इत्यस्यां क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ दिल्ल्याः अरुणजेटली क्रीडांगणे सनराइजर्स हैदराबाद दलेन डेल्ही कैपिटल्स दलं 67 धावनांकैः पराजितम्। किर्गिस्तानस्य बिश्केक नगरे ह्यः जातायां एशियाई ओलंपिक क्वालिफायर प्रतिस्पर्धायां भारतीय मल्लयुद्ध क्रीडिकाः विनेश फोगाट, अंशु मलिकः, ऋतिका हुडा च पेरिस ओलंपिक इत्येतदर्थं प्रवेशं सम्प्राप्तवत्यः इति वार्ताः।